दिवश्चिदस्य मरिमा विपप्रथ इन्द्रन्न मह्ना पृथिवी च न प्रति भीमस्तु विष्माञ्चर्षडिभ्य अथमश्यिषीते भज्रन्ते जसेन वंसगः सो अर्णवो न नद्यः समुद्रिजः प्रतिगृह्णाति विश्रिता मरीमभिः इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसापनस्यते त्वन्तमिन्द्रपर्वतन्न भोजसे महो नृम्णस्य धर्मणामिरज्यसि प्रवीर्येण देवतातिचेकिते विश्वस्मा उग्रः कर्मणे पुरोहितः स इद्वने नमस्यभिर्वचस्यते चारुजनेश प्रब्रुवाण इन्द्रियम् वृषा छन्दर्भवति हर्यतो वृषा क्षेमेण धेनाम् भगवायदिन्वति स इन्महानि समिथानि भज्मना कृणोति युध्म ओजसा जनेभ्यः अधा च न श्रद्दधति द्विषी मत इन्द्राज वज्रन् निघनिघ्नते वधम् स हि श्रवस्य सदनानि कृत्रिमाक्ष्मया वृधान ओजसा विनाशयन्न ज्योतींश कृण्वन्न वृकाणि जज्यवेव सुक्रतः सर्तवा अपसृजत दानाजमनः सोमपवन्नस्तुतेर्वाञ्चा हरी वन्दनश्रुदाग्रधे यमिष्ठा सारथयो य इन्द्रतेन त्वा केता आदभ्नुवन्ति भोर्णयः अप्रक्षितम् वसु बिभर्षि हस्तयो रषाह्लम् सहस्तन्विश्रुतो दधे आव्रता सोमता सो न कर्तृभ्यस्तनोषु ते क्रतव इन्द्रभूरयः